मुखे चारुहासं करे शङ्खचक्रं गले रत्नमालां स्वयं मेघवर्णं तथा दिव्यशस्त्रं प्रियं पीतवस्त्रं धरन्तं मुरारिं भजे वेङ्कटेशम् सदा भीतिहस्तं मुदा जानुपाणिं लसन्मेखलं रत्नशोभाप्रकाशं जगत्पादपद्मं महत्पद्मनाभं धरन्तं मुरारिं भजे वेङ्कटेशम् अहो निर्मलं नित्यमाकाशरूपं जगत्कारणं सर्ववेदान्तवेद्यं विभुं तापसं सच्चिदानन्दरूपं धरन्तं मुरारिं भजे वेङ्कटेशम् श्रियाविष्टितं वामपक्ष प्रकाशं सुरैर्वन्दितं ब्रह्मरुद्रस्तुतन्तं शिवं शङ्करं स्वस्ति निर्वाणरूपं धरन्तं मुरारिं भजे वेङ्कटेशम् महायोगसाध्यं परिभ्राजमानं चिरं विश्वरूपं सुरेशं महेशं अहो शान्तरूपं सदा ध्यानगम्यं धरन्तं मुरारिं भजे वेङ्कटेशम् अहो मत्स्यरूपं तथा कूर्मरूपं महाक्रोडरूपं तथा नारसिंहं भजे कुब्जरूपं विभुं जामदग्न्यं धरन्तं मुरारिं भजे वेङ्कटेशम् अहो बुद्धरूपं तथा कल्किरूपं प्रभुं शाश्वतं लोकरक्षामहन्तं पृथक्काललब्धात्मलीलावतारं धरन्तं मुरारिं भजे वेङ्कटेशं धरन्तं मुरारिं भजे वेङ्कटेशं धरन्तं मुरारिं भजे वेङ्कटेशम्।